गीता शास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् विष्णो पदं वाप्नोति भयशोकादिवर्जितः।
गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च।
मलनिर्मोचनं पुंसां जलस्नानं दिने दिने सकृद्गीताम्भसि स्नानं संसारमलनाशनम्।
गीता सुगीता कर्तव्या किमन्य है शास्त्र विस्तरे है या स्वयं पद्मनाभस्य मुख पद्माद्विनिःसृताः।
भारतामृत सर्वस्वं विष्णोर्वक्त्राद्विनिसतं गीता गंगोदक पीत्वा पुनर्जन्म न विद्यते।
सर्वोपनिषदो गावो दुग्धा गोपाल नंदनः पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत्। गीता गंगोदकं पीत्वा पुनर्जन्म
एकं शास्त्रं देवकी पुत्र गीत
पुनर्जन्म
नेको देवो देवकी पुत्र
एवं तत्सत
एको मंत्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा।